इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अद्यतनीयाः वार्ताः। संयुक्तराष्ट्रे इजराइल देशस्य राजदूतेन फलिस्तीन इस्लामिक समूहे हमास इत्येतस्मिन् युद्धारोपः आरोपितः। शपथवचनमपि स्वीकृतं यत् हमासस्य आतंकी संरचनायाः ध्वंससमयः आगतः इति। यतोहि ह्यः संयुक्तराष्ट्रपरिषदा संघर्षे चर्चा कुर्वता उपवेशनमेकम् आहूतम्। गजा इत्यस्य फलिस्तीनीय क्षेत्रे संजाते आक्रमणे हमास आतंकवादिभिः इजराइल नगरेषु आक्रमणं कृतं, यस्मिन् सप्तशताधिकाः जनाः मारिताः। न्यूयॉर्के 15 सदस्यीय सुरक्षा परिषदः उपवेशनात् पूर्वं इजराइलस्य राजदूतः गिलैड एल्डनः प्रावोचत् यत् युद्धोऽयम् अपराधयुक्तो अस्ति। अवधेयं वर्तते यत् इजराइल देशेन ह्यः गजा इत्यस्मिन् आक्रमणं कृतं, प्रत्युत्तरे कार्याचरणे सहस्राधिकाः जनाः तत्र मारिताः। केन्द्रीय विदेश राज्य मंत्री वी मुरलीधरनः इजराइल देशे संकटग्रस्तैः भारतीय जनैः निवेदितवान् यत् साहाय्यम् अपेक्षितम् अस्ति चेत् ते भारतीय दूतावासेन सम्पर्कं साधयन्तु। असौ केरलस्य कोच्चि नगरे वार्ताहरान् सम्बोधयन् आसीत्। इजराइल देशीय प्रधानमंत्री बेंजामिन नेतन्याहू ह्यः अमेरिकीय राष्ट्रपतिना जो बाइडेनेन सह वार्तां कृतवान्। अत्रावसरे अमेरिकीय राष्ट्रपतिः देशं प्रति स्पष्टरूपेण समर्थनं प्रख्यापितवान्। इतः पूर्वं प्रधानमंत्री नेतन्याहू यूक्रेन देशीयेन राष्ट्रपतिना व्लादिमीर जेलेंस्की इत्यनेन, इटली देशीयेन प्रधानमन्त्रिणा जॉर्जिया मेलोनी इत्यनेन, ब्रिटेन देशीयेन प्रधानमन्त्रिणा ऋषि सुनकेनापि च सहापि वार्तां विहितवान्। इजराइल देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू बाइडेनं प्रति स्पष्ट समर्थनाय धन्यवादं प्रदत्तवान्। रक्षामन्त्री राजनाथ सिंहः अद्य आरभ्य अस्य मासस्य 12 दिनांकं यावत् इटली फ्रांसयोः यात्रां विधास्यति। यात्रायाः प्रथमे चरणे श्रीसिंहः इटली देशस्य रक्षामन्त्रिणा गाइडो क्रिसेटो इत्यनेन समं मेलनं करिष्यति। अस्मिन् वर्षे मार्च मासे इटली देशस्य प्रधानमन्त्रिणः भारत यात्रावधौ उभयोः देशयोः मध्ये सम्पर्काणां सीमा रणनीतिक सहभागितां यावत् संवर्धिता। यात्रायाः द्वितीय चरणे श्रीसिंहः पेरिस नगरे फ्रांसस्य रक्षामन्त्रिणा सेबस्टियन लेकॉर्नो इत्यनेन सह पञ्चमा वार्षिक रक्षावार्तां करिष्यति। उभौ देशौ साम्प्रतिके समये रणनीतिक सहभागितायाः 25वां वार्षिकोत्सवम् आमानितवन्तौ। एयर इंडिया इत्यनेन विमानेन अस्य मासस्य 14 दिनांकं यावत् तल अवीव इत्यत्र गम्यमाना विमानसेवा स्थगिता कृता। एकस्मिन् सामाजिक अन्तर्जालपटले एयर इंडिया इति विमानसेवा अद्य उक्तवती यत् तल अवीव इत्यत्र गम्यमानाः सम्पूर्ण विमानसेवाः यात्रिणां विमानसेवादलस्य कार्यकर्तृणां सुरक्षादृष्ट्या सम्प्रत्यपि 14 दिनांकं यावत् स्थगिताः जाताः। ध्येयं वर्तते यत् ह्यः हमास आतंकवादिभिः इजराइल देशे आक्रमणं कृतम् आसीत्। आईसीसी इति पुरुषस्य क्रिकेट विश्व चषक प्रतिस्पर्धायां भारतेन स्वीय प्रथमा प्रतिस्पर्धायां ऑस्ट्रेलिया देशः 6 धावनांकैः पराजितः। चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे ह्यः ऑस्ट्रेलिया देशेन प्रदत्तान 200 धावनांकान अनुसरणं कृत्वा भारतेन स्वीय प्रतिस्पर्धा विजिता। केएल राहुलः प्रतिस्पर्धायाः सर्वश्रेष्ठ क्रीडकः चयनितः। इति वार्ताः।